एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली संविधानस्य विधेयस्य सफल क्रियान्वयनाय नागरिकान् सचेष्टान् विधाय अग्रे वर्धनम् आवश्यकम् अस्तीति प्रतिपादयति। एतत् विक्रम वर्षीय राष्ट्रिय विधि संहिता दिवसस्य अवसरे विधि न्याय संसदीय विषय मन्त्रालयेन ह्य सिंहप्रासादे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली आपराधिक मनोवृत्तिम् निरुत्साहिताम् विधातुम् नागरिकेषु नैतिक सञ्चेतनायाः जागरणस्य च उत्पादनम् आवश्यकम् अस्तीति प्रावोचत। प्रधानमन्त्री ओली जनतायाम् विदेह शासनस्य प्रत्याभूतिम् दापयितुम् अपराधस्य अनुसन्धानाभियोजन न्याय निरूपक संस्थाः स्वच्छाः दायित्ववाहिन्यश्च सम्पादनीयाः इति बलम् प्रादात्। तदवसरे प्रधानमन्त्री ओली लोकतन्त्रे जनता सार्वभौमसत्ता सम्पन्ना भवतीत्यतः सामूहिक रूपेण प्रयासे विहिते संसदा संविधान संशोधनम् कर्तुम् शक्यते इति समस्पष्टयत्। कार्यक्रमे प्रधान न्यायाधीशः विश्वम्भर प्रसाद श्रेष्ठ राष्ट्रिय विधि संहितायाम् अन्य प्रचलितेषु विधिषु च कतिपय सन्दर्भेषु द्विरावर्तता दृश्यते इति चर्चयन् समयानुकूलतया विधिन् परिमार्ज्य एकरूपता आनयेति अवोचत। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया राष्ट्रिय विधि संहितया न्याय सम्पादनस्य कार्यम् आधुनिकम् वैज्ञानिकम् च विहितम् अस्तीत्यतः अस्याः सफल क्रियान्वयनेन जनतायाम् विधेय शासनस्य अनुभूति प्रदातव्या। प्रधानमन्त्री केपी शर्मा ओली भासते शिक्षकाणाम् समस्याः पारस्परिक संवादस्य माध्यमेन समाधातव्याः। नेपाल राष्ट्रिय शिक्षक संगठनस्य त्रयोविंशम् राष्ट्रिय परिषदुपवेशम् सम्बोधयन् प्रधानमन्त्री ओली शिक्षणस्य दायित्वेन सहैव नेपालस्य राजनैतिक परिवर्तनेऽपि शिक्षकैः महत्वपूर्णा भूमिका निर्व्यूढास्तीति अवोचत। प्रधानमन्त्री ओली शिक्षक सम्बद्धानाम् कर्मचारी सम्बद्धानाम् च अधिनियमानाम् पारस्परिक परामर्शेनाम् विमर्शनेन च समयानुकूल सुधाराय सर्वकारः तत्परोऽस्तीति प्रावोचत। प्रधानमन्त्रिणा केपी शर्मा ओलिनः नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिधस्य च मध्ये मेलवार्ता सम्भूता वर्तते। बालवाटार वर्तिनी प्रधानमन्त्री निवासे सम्भूते मेलने सामयिक विषयाणाम् आदान प्रदानम् राजनीतिकम् विमर्शनम् सर्वकारेण विहितानाम् विधेयानाम् च कार्याणाम् सन्दर्भे विमर्शनम् च सम्भूतम् अस्तीति प्रधानमन्त्रिणा ओलिना सामाजिक सञ्जालस्य माध्यमेन ज्ञापितम् वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना भारत सर्वकारेण आयोजितायाः तृतीय श्रृंखलायाः ग्लोबल साउथ समिट मञ्चस्य उद्घाटन सत्रम् पूर्वेद्यो श्रव्य दृश्य माध्यमेन सम्बोधितमस्ति। अस्य क्षेत्रस्य पञ्चदशभिः राष्ट्रप्रमुखैः सर्वकार प्रमुखैश्च सम्बोधितस्य अस्य सम्मेलनस्य विषये प्रधानमन्त्रिणा ओलिना ट्विटर सामाजिक सञ्जालस्य माध्यमेन संसूचयता अस्य महत्वपूर्णस्य कार्यस्य नैरन्तर्यस्य कृते भारतस्य प्रधानमन्त्रिणे नरेन्द्र मोदिने वर्धापनम् प्रदत्तमस्ति। वयम् संयुक्तेन प्रयासेन अस्माकम् भविष्यम् निर्धारयितुम् शक्नुम। यतः सर्वेषामेव लाभो भविष्यति इति प्रधानमन्त्रिणा ओलिना सांजाले उक्तम् वर्तते। रक्षामन्त्रिणः मानवीर राई नेतृत्वस्य अध्ययन समूहेन ह्यः सोलुखुम्बु जनपदस्य खुम्बु पासाङलामो ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य थामे खोलिकायाम् परैह दूरापन्नस्य जल विप्लवस्य स्थलगतम् अनुगमनम् विहितम् वर्तते। अधिक प्रभावित क्षेत्राणाम् वस्तुस्थितिम् अध्येतुम् तत्र प्राप्तेन समूहेन थामे ग्रामोपरि ह्रदद्वयस्य भञ्जनात् थामे कोलिकायाम् दुदकोशिकी नद्याञ्च जलप्रवाह वर्धितः इति निष्कर्षः प्रकाशितो वर्तते। अध्ययन समूहेन अन्य ह्रदद्वयमपि उच्च संकटापन्नावस्थायाम् वर्तते इति ज्ञापितमस्ति। सोलुखुम्बु प्रमुख जनपदाधिकारी देवी पाण्डे लघु पञ्चसु ह्रदेषु ह्रदद्वयम् भग्नम् ह्रदद्वयम् उच्च संकटावस्थापन्नायाम् वर्तते इति असूचयत्। ह्य जनपद विपद व्यवस्थापन कोषाद पीडित परिवारेभ्य प्रति परिवारम् 50,000 रूप्यकाणाम् सहयोगः प्रदत्तोऽस्तीति च असौ असूचयत्। ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का भाषते देशस्य ऊर्जा क्षेत्रस्य समस्याः समाधातुं सम्बद्ध निकायैः परस्परं मिलित्वा कार्यं विधातव्यम्। नेपाल विद्युत प्राधिकरणस्य 49वां वार्षिकोत्सवस्य अवसरे पूर्वे द्यूह आयोजिते कार्यक्रमे मन्त्री खड्का ऊर्जा क्षेत्रस्य अतिरिक्त विकासाय संयुक्त सहकार्यस्य आवश्यकतां प्रतिपाद्य नीति कार्यक्रमाः व्यावहारिकाः विधातव्याः इति बलं प्रादात्। परराष्ट्र मन्त्री डाक्टर आरजू राणा देववा अद्य भारतस्य औपचारिक भ्रमणाय गच्छति। भारतदेशस्य समकक्षिण एस जयशंकर इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां मन्त्री राणा देववा चतुर्दिवसात्मकाय भारत भ्रमणाय तत्र गच्छतीति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। मन्त्री डाक्टर राणा सैव भाद्रमासस्य षष्ठे दिवसे स्वदेशं प्रत्यागन्ता। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति पश्चात्तन समये दले आन्तर विमर्शनेन दलम् ऐक्यबद्धम् वितम् वर्तते। दल सम्बद्धायः रूकुम पश्चिम काष्ठमण्डप सम्पर्क समितेः द्वितीये अधिवेशने अध्यक्ष प्रचण्ड दलस्य स्थायी समितेः उपवेशे उपमहासचिवेन जनार्दन शर्मणा प्रस्तुतं मतं भिन्नं नास्तीति स्पष्टीकृत्य तस्य केन्द्रीय समितेः प्राविलेखे समावेशः करिष्यते इति अभासत। उपमहासचिव जनार्दन शर्मा आत्मना दलस्य आन्दोलनस्य नेतृत्वस्य जनतायाश्च पक्षे कार्यं विहितम् इति उक्तवान्। सर्वकारेण वर्षायामे देशस्य विभिन्नेषु स्थानेषु दुरापन्नैः भूस्खलन जल विप्लवैः पीडितेभ्य जनेभ्य आवश्यकतानुसारेण सहयोग सामग्री वितीर्णा वर्तते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य अनुसारेण वर्षायामस्य प्रारम्भात् अधुनावधि त्रयोदश जनपदानां विपद व्यवस्थापन कोषेषु 1,67,00,000 च रूप्यकाणि प्रेषितानि सन्ति। वर्षायामे पीडितेभ्य जनेभ्य तत्कालं सहयोग स्वरूपं 5,000,000 20,000,000 यावद् रूप्यकाणां सहयोग विहितोऽस्ति प्राधिकरणेन ज्ञापितं वर्तते। अस्मिन् वर्षे अधुनावधि प्राकृतिक विपदा 67,100 जनाः मृताः सन्ति, सहस्रत्रयं परिवाराः विस्थापिताश्च वर्तन्ते इति प्राधिकरणेन ज्ञापितं वर्तते। क्यानडावर्तिना नेपाली राजदूतावासेन निकट भविष्यति नूतन शैक्षिक सत्रस्य प्रारम्भं जायमानम् अस्तीत्यतः अध्ययनाय क्यानडादेशं गन्तुकामेभ्य विद्यार्थिभ्य सम्यक् अधीत्यैव क्यानडादेशे अध्ययनाय पूर्वकार्यं विधातुं परामृष्टं वर्तते इति समाचाराः।